अथ वराहपुराणोक्तः ब्रह्मपारस्तवः। प्रचेतस ऊचुः ब्रह्मपारं मुने श्रोतुमिच्छामः परमं स्तवम्। जपता कण्डुना देवो येनाराध्यत केशवः। सोम उवाच पारः परं विष्णुरपारपारः परः पराणामपि पारपारः। स ब्रह्मपारः परपारभूतः परः परेभ्यः परमार्थरूपी। सकारणं कारणतस्ततोऽपि तस्यापि हेतुः परहेतुहेतुः। कार्येषु चैवं स हि कर्मकर्तृरूपैरशेषैरवतीह सर्वम्। ब्रह्मप्रभुर्ब्रह्म स सर्वभूतो ब्रह्मप्रजानां पतिरच्युतोऽसौ। ब्रह्माव्ययं नित्यमजं स विष्णुरपक्षयाद्यैरखिलैरसङ्गी। ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः। तथा रागादयो दोषाः प्रयान्तु प्रशमं मम। एवं वै ब्रह्मपाराख्यं संस्तवं परमं जपन् अवाप परमां सिद्धिं ससमाराध्य केशवम्। इति वराहपुराणोक्तः ब्रह्मपारस्तवः।